एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली देशे सम्भावित घटनानां पूर्वानुमानम् अनुसन्धानञ्च विधाय तथाविध घटनानां रोधनं प्रति सावधानताम् अवलम्बितुं नेपाल प्रहरिणं निर्देशति। काष्ठमण्डप जनपद प्रहरी परिसरस्य काष्ठमण्डप महानगरपालिकायाः एकादश वडा क्षेत्रस्य भद्रकाली स्थाने नवनिर्मितं भवनम् उद्घाटयन् प्रधानमन्त्री ओली अस्थिरतायाः अराजकतायाश्च सर्जनाय विहितं प्रयासं प्रति प्रतिक्षणं सावधानताम् अवलम्ब्य जनतायै शान्ति सुरक्षाया प्रदानस्य विषये दृढतापूर्वकं कार्यं विधातुं प्रहरिणं निरदिशत्। तदवसरे गृहमन्त्री रमेश लेखकः जनतायाः विषयान् प्राथमिकतायां स्थापयितुं प्रहरिणं निरदिशत्। गृहमन्त्री लेखकः देशस्य आर्थिक राजनीतिक विकास निर्माणाय विपुल दलद्वयेन मेलनीयमभूदिति समस्पष्टयत्। प्रहरिणा तात्कालिक नेपाल खाद्य संस्थानात् एकाब्जम् दश कोटयश्चेति रूप्यकै पञ्चदश रूपणी परिमिताम् भूमिम् कृत्वा एकाब्जेन षड्विंशत्या कोटिभिश्च रूप्यकै आधुनिकम् भवनम् निर्मितम् वर्तते। प्रधानमन्त्री केपी शर्मा ओली भाषते प्रतिवेशी राष्ट्राणां सम्बन्धे यदा कदा समस्यानां दर्शनं सामान्य विषयोऽस्तीत्यतः संवादेनैव तासां समस्यानां समाधानं करणीयम्। पूर्वोप प्रधानमन्त्रिणा कमल थापाभिधेन लिखितस्य कूटनीतिर भू राजनीति इति नामकस्य पुस्तकस्य लोकार्पणं विदधानः प्रधानमन्त्री ओली न्यायोचित रूपेण राष्ट्रियहितेन सहैव अन्तर्राष्ट्रियहितमपि केन्द्रे संस्थाप्य तथ्यानां प्रमाण आधारेण समाधानान्वेषणे सति समस्याः नोत्पद्यन्ते इति प्रावोचत्। प्रधानमन्त्री केपी शर्मा ओली निगदति विकसितस्य आधुनिकस्य शान्तिपूर्णस्य च समाजस्य निर्माणाय शिक्षया योगदानं प्रदातव्यम्। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य आयोजितायां सुदूरपश्चिम विश्वविद्यालयस्य द्वादश्यां सभायां विश्वविद्यालयस्य कुलपतिः ओली गुणवतः जनान् उत्पाद्य विश्वविद्यालयेन समाजाय योगदानं प्रापणीयमिति प्रावोचत्। सुदूरपश्चिम विश्वविद्यालयस्य स्थापनायाः पूर्वं विहिते विमर्शने आत्मनः अपि सहभागिता आसीदिति स्मरन् प्रधानमन्त्री ओली सुदूरपश्चिम प्रदेशस्य संस्कृतेः परम्परायाश्च प्रदर्शिकां शिक्षां प्रदातुमपि विश्वविद्यालयस्य पदाधिकारिभ्यः परामृशत्। प्रधानमन्त्री केपी शर्मा ओली निगदति नेपाले विद्यमानानां नैकविधानां संस्कृतीनां मौलिक परम्पराणां च संरक्षण पुरस्सरं तेषां विश्वव्यापीकरणं विधेयम्। गौरापर्वणः अवसरे ह्य टुडीखेलस्थाने आयोजिते कार्यक्रमे प्रधानमन्त्री ओली नेपाले विद्यमानायाः प्राकृतिक सांस्कृतिक विविधतायाः संरक्षणाय सर्वेषु दायित्वबोधः उत्पादनीयः इति बलं प्रादात्। तदवसरे नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा गौरापर्व सुदूरपश्चिम प्रदेशस्य कर्णाली प्रदेशस्य च मौलिक पर्व अस्तीति चर्चयन् अनेन पर्वणा एकतायाः भ्रातृत्वस्य च सन्देशः प्रसार्यते इति अभाषत। कार्यक्रमे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री प्रसाद पाण्डेयः वन वातावरण मन्त्री ऐनबहादुर शाही ठकुरी च गौरापर्वणः महत्वं समस्पष्टयताम्। प्रत्येकं वर्षे भाद्र शुक्ल पञ्चमीतः अष्टमीं यावत् विशेषेण सुदूरपश्चिम क्षेत्रे समायोज्यमाने अस्मिन् पर्वणि पार्वती परमेश्वरयोः पूजाराधनाभ्यां सह व्रतः समाचर्यते। राष्ट्रपतिना रामचन्द्र पौडेलेन ललितपुरस्य पाटनवर्तिनी कृष्णमन्दिरे दर्शनं पूजनञ्च विहितमस्ति। श्रीकृष्ण जन्माष्टमी पर्वणः अवसरे ह्य पाटन प्रासादस्थितं कृष्णमन्दिरं प्राप्य भगवतः श्रीकृष्णस्य पूजाराधनपुरस्सरं अर्चकात् प्रसादं गृहीतवान्। मन्दिरस्य दर्शनानन्तरं राष्ट्रपतिः पौडेलः मंगलहिटी स्थानस्य अवलोकनं च व्यदधात्। श्रीकृष्ण जन्माष्टमी पर्वणः अवसरे राष्ट्रप्रमुखेण प्रतिवर्षं कृष्णमन्दिरस्य दर्शनं विधाय पूजाराधनायाः परम्परा वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भाषते संक्रमणकालिक न्यायेन सम्बद्धस्य विधेयकस्य संसद सदनद्वयात् पारिति भवनानन्तरं हुतात्मनां विलोपितानां च जनानां परिवारेभ्य सम्मान प्रदानस्य परिपूरणस्य च द्वारं समुद्घाटितं वर्तते। ह्य कास्की जनपदस्य पोखरा महानगरपालिकायां हुतात्मनां विलोपितानां च जनानां परिवारैस्सह विहिते मेलने अध्यक्षः प्रचण्डः दीर्घकालिक प्रयासस्य पश्चात् सत्यनिरूपण मेला आयोग सम्बद्धं विधेयकं निष्कर्षे प्राप्तमस्तीति उदैरयत्। तदवसरे विलोपित यद्री परिवारस्य कास्की जनपदस्य अध्यक्षः अणनाथ वरालः विलोपितानां जनानाम् अवस्थायाः इदानीमपि अज्ञातावस्थायां सत्वात् आत्मभि अधुनापि पीडावस्थायां स्थेयमस्तीति वेदनामकरोत्। ह्य एव पोखरायां दलस्य गण्डकी प्रदेश स्तरीय परामर्शोपवेशस्य समापन समारोहे अध्यक्षः प्रचण्डः जनतायां गन्तुं नूतन विचारस्य विकासाय प्रवर्तयितुं च दलस्य नेतृन् कार्यकर्तृन् च निरदिशत्। अध्यक्षः प्रचण्डः माओवादी केन्द्रं सम्प्रत्यपि महत्वपूर्ण शक्तिरस्तीत्यतः राष्ट्रिय स्वाधीनतायाः उपलब्धिनाश्च संरक्षणम् अन्येभ्यः सम्भवो नास्तीति अवोचत्। नेपाल महिला संघस्य संस्थापकाध्यक्षस्य महिला नारी आन्दोलनस्य प्रथम महिला नेत्र्याः मंगला देवी सिंहस्य अष्टाविंश स्मृति दिवस समायोजितो वर्तते। स्मृति दिवसस्य सन्दर्भे ह्य डल्लुवर्तिनी शुभा भगवती स्थाने विद्यमानायां सिंहस्य प्रतिमायां उप प्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह माल्यार्पणं समर्पितवान्। ओमान देशस्य विदेश मन्त्री सैयद बद्र बिन हमाद बिन हमूद अल्बु सैदी द्वि दिवसात्मकाय नेपाल भ्रमणाय ह्य काष्ठमण्डपम् आगतवान् अस्ति। अल्बु सैदी इत्यस्य त्रिभुवनान्तरराष्ट्रिय विमानस्थले परराष्ट्र सचिवः सेवालम्सालः स्वागतं विहितवती। ओमान देशस्य विदेश मन्त्री अल्बु सैदी परराष्ट्र मन्त्रिणः आर्जु राणा देउवा इत्यस्याः निमन्त्रणायां द्वि दिवसीय नेपाल भ्रमणाय आगतवान् अस्ति। भ्रमणावसरे द्वयोः देशयोः विदेश मन्त्रिणोर्मध्ये नेपालस्य ओमान देशस्य च सम्बन्धम् इतोऽपि सुदृढं विधातुं द्विपक्षीयेन हितस्य विविधेषु विषयेषु मेलवार्ता विमर्शनञ्च भवत इति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। भ्रमणस्य क्रमे ओमान देशस्य विदेश मन्त्रिणा राष्ट्रपतिना रामचन्द्र पौडेलेन प्रधानमन्त्रिणा केपी शर्मा ओलिना च सहापि पृथक पृथक मेलवार्ता करिष्यते। ओमान देशस्य विदेश मन्त्री अद्य स्वदेशं प्रतिष्ठते। चितवन जनपदस्य विभिन्नेषु चिकित्सालयेषु उपचाराय आगतेषु रोगीषु अष्टाशीत्युत्तर पञ्चशते जनेषु डेंगू रोगस्य संक्रमणं पुष्टीभूतमस्ति। संक्रान्तानां मध्ये सप्तदशोत्तर शतचतुष्टयं जनाः चितवन जनपदस्य एकसप्तत्यधिकैकशतं जनाः अन्य जनपदानां च वर्तन्ते इति चितवन जनस्वास्थ्य कार्यालयस्य रामकेशी अज्ञापयत्। पूर्व पश्चिम राजमार्गान्तर्गते रौतहट जनपदस्य चन्द्रनिगाहपुरस्थाने टाटा सुमो यानेन मोटरसाइकल यानं प्ररितं सत् द्वौ जनौ मृतौ स्तः। दुर्घटनायां सुनसरी जनपदस्य धरान उपमहानगरपालिकायाः पञ्चदश वडा क्षेत्रस्य त्रयस्त्रिंशद् वर्षीयः तुलसी ओझा, मोरङ जनपदस्य सुन्दर हरैचा नगरपालिकायाः एकादश वडा क्षेत्रस्य विवश सापकोटा च स्तः इति प्रहरिणा ज्ञापितं वर्तते। इति समाचारः।